इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द शर्मा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः 11 आकाशवाण्यां मन की बात इति मासिके कार्यक्रमे दैशिकैः वैदेशिकैः जनैश्च साकं स्वविचारान् विनिमयीकरिष्यति। एतस्य मासिक कार्यक्रमस्य एतत् 23rd प्रसारणं स्यात्। एतस्य कार्यक्रमस्य प्रसारणं आकाशवाण्यां दूरदर्शने न्यूज ऑन AIR इति फलके च स्यात्। एतत् सूचना प्रसारण मन्त्रालयस्य यूट्यूब वाहिनीभिश्चापि प्रसारयिष्यते। कार्यक्रमस्य एतस्य आकाशवाण्यां हिन्दी भाषायां प्रसारणानन्तरं क्षेत्रीय भाषासु चापि प्रसारणं करिष्यते। प्रधानमन्त्रिणा नरेन्द्र मोदिना अन्ताराष्ट्रिय अन्तरिक्ष स्थानके उपस्थितेन शुभांशु शुक्ला इत्यमुना साकं वार्ता कृता। श्रीमोदी प्रोक्तवान् यत् शुभांशोः एषा यात्रा नवयुगस्य प्रारम्भो वर्तते। प्रधानमन्त्रिणा मोदिना सह स्वविचारान् विनिमयीकुर्वन् शुभांशुः शुक्ला प्रतिपादितवान् यत् तेन स्वीय प्रशिक्षणावधौ एतत् बहु शिक्षितम्। अथ सः प्रोक्तवान् यत् एषा यात्रा सम्पूर्ण देशाय सामूहिकी उपलब्धिः वर्तते।
जब मैं छोटा था मैं कभी सोच नहीं पाया कि मैं एस्ट्रोनॉट बन सकता हूँ, लेकिन मुझे लगता है आपके नेतृत्व में आज का भारत ये मौका देता है और उन सपनों को साकार करने का भी मौका देता है। ये बहुत बड़ी उपलब्धि है मेरे लिए और मैं बहुत गर्व फील कर रहा हूँ कि मैं यहाँ पे अपने देश का प्रतिनिधित्व कर पा रहा हूँ।
शुभांशुः ज्ञापितवान् यत् अन्तरिक्षात् भारतम् भव्यम् बृहत्तमम् च दरीदृश्यते। अवधेयम् यत् कैप्टन शुक्ला द्वितीयः भारतीयः अन्तरिक्षयात्री येन अन्तरिक्षयात्रा कृता। एतत् पूर्वम् 4 दशाब्द्याः पूर्वम् राकेश शर्मा सोवियत मिशन इत्यन्तर्गतम् अन्तरिक्षयात्रां कृतवान् आसीत्। भारते 5 वर्षात् न्यून आयुवर्गीय बालानां मृत्यु प्रतिशन्मिते 78% न्यूनता समधिगता, यच्च वैश्विक स्तरे 61% अधिकम्। संयुक्त राष्ट्र अन्तर समूहस्य बाल मृत्यु मितानुसारेण नवजात मृत्यु प्रतिशन मिते अपि वैश्विक स्तरे 45% तुल्ये 70% न्यूनता समधिगता। बिहार प्रदेशे 6 नगर पञ्चायतेषु अथ 38 नगर निकायेषु उपनिर्वाचनं शान्तिपूर्ण रीत्या सम्पन्नम्। राज्य निर्वाचन आयोग अनुसारेण 62% मतदानम् अत्र समंकितम्। उपराष्ट्रपतिः जगदीप धनखड़ः प्रोक्तवान् यत् कस्यापि संविधानस्य प्रस्तावना तस्य आत्मा भवति, अथ परिवर्तयितुं न शक्यते कदापि। श्रीधनखड़ः प्रोक्तवान् यत् भारतम् अतिरिच्य न केनापि देशेन स्वीय संविधान प्रस्तावनायां परिवर्तनं कृतम्। नवदेहल्याम् एकस्मिन् पुस्तक विमोचन समारोहं सम्बोधयता श्रीधनखड़ेन एते विचाराः प्रकटिताः।
The preamble of Indian Constitution is unique. The preamble has been imparted by we the people of India, except Bharat. Nobody's constitution's preamble has undergone change. And why? Preamble is not changeable. Preamble is not alterable. Preamble is the basis on which constitution has grown. Preamble is the seed of the constitution. It is soul of the constitution.
ईरान देशस्य सर्वोच्च नेतुः अयातुल्ला अली खामेनेई इत्येतस्य इज़राइल देशेन सह युद्धे विजय प्राप्त परं वक्तव्यम् अभिलक्ष्य अमेरिका देशीयः राष्ट्रपतिः डोनाल्ड ट्रम्प इत्यसौ अमुम् कट्वालोचितवान्। ट्रम्प इत्यसौ संचेतितवान् यत् ईरान देशेन परमाणु अस्त्र निर्माणस्य प्रयासः यदि कृतः तत् अमेरिका देशेन निश्चित रूपेण ईरान देशं विरुध्य आक्रमणं करिष्यते। अन्ते च क्रीडा वार्तासु। महिलानां क्रिकेट स्पर्धायां भारतेन 5 स्पर्धा मालिकायाः प्रथमे द्वन्द्वे इंग्लैंड दलं 97 धावनांकैः पराजितम्। स्मृति मन्धानाः स्पर्धायां स्पर्धा नायिकात्वेन चिता। इति वार्ताः।